एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयोपवेशेन मन्त्रिपरिषदः पुनर्घटनम् स्थायि समितेः निर्णयस्य अनुसारेण विधातुम् निर्णीतम् वर्तते। कोटेश्वरस्य पेरिस डाँडा स्थिते दलकार्यालये ह्यः उपविष्टेन तेनोपवेशेन मन्त्रिपरिषदः पुनर्घटनस्य विषये विभिन्नेभ्यः कोणेभ्यः प्राप्तानाम् परामर्शानाम् आधारेण विमृष्टुम् निर्धार्य समितेः निर्णयस्य अनुसारेण अग्रे वर्धनाय नीतिगत निर्णयः विहितो वर्तते। उपवेशेन सांविधानिक राजनैतिक नियुक्तेर विषये सर्वकाराय आधाराणाम् निर्माणाय सारल्यम् स्रष्टुम् विमर्शन सम्बद्धा कार्यसूची निर्धारिता स्थिति नेकपा दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। उपवेशेन सांगठनिकैकीकरणस्य अवशिष्टानाम् कार्याणाम् पूरणस्य विषये विमर्शनाय संघटन विभागस्य निर्णयानाम् क्रियान्वयनाय स्थायि समितौ केन्द्रीय समितौ च रिक्तानाम् पदानाम् पदपूर्तेः विगत समये विहितानाम् कार्याणाम् च विषयेषु विमर्शनाय च कार्यसूची निर्धारिता वर्तते। दलस्य पूर्णकालिक कार्यकर्तृभ्यः आर्थिक सहयोग प्रदानात्मकस्य प्रचलनस्य अनुसारेण केन्द्रीय समितेः सदस्येभ्यः नियमितरूपेण आर्थिक सहयोग प्रदानस्य विषयेऽपि विमृष्टुम् उपवेशेन कार्यसूची निर्धारितेति दलप्रवक्ता श्रेष्ठः अबोधयत्। नेकपादलस्य सचिवालयोपवेशः अद्य दिवा एकवादने पेरिस डाँडास्थाने पुनर्वसति। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना विषाणोः निदर्शनानाम् परीक्षण प्रयोगशालानाम् गुणस्तरम् सुधारयितुम् निर्दिष्टम् वर्तते। प्रयोगशालानाम् गुणस्तरस्य सम्बन्धे पश्चवर्ति समये मन्त्रालये निवेदनानाम् प्राप्तेः अनन्तरम् कोरोना विषाणोः निदर्शनानाम् परीक्षण प्रयोगशालानाम् सञ्चालकाः गुणस्तरम् स्थापयितुम् निर्दिष्टाः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य नियमिते संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः अतःपरम् कोरोना संक्रान्तानाम् जनानाम् एकान्तवास व्यवस्थापनस्य दायित्वम् स्थानीय स्तरेभ्यः प्रदत्तम् अस्ति इति अज्ञापयत्। नेपाले ह्यः कोरोना संक्रमणेन अतिरिक्तानाम् 10 जनानाम् मृत्योः पश्चात् अद्यावधि कोरोना संक्रमणेन मृतानाम् जनानाम् संख्या 411 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। गत चतुर्विंशत्याम् घण्टासु आराष्टम् विभिन्नासु प्रयोगशालासु 95,584 जनानाम् विहितेन पीसीआर विधेः परीक्षणेन 1,107 जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। ह्यः काष्ठमण्डपस्य 67% ललितपुरस्य 64% भक्तपुरस्य 111% चेति कृत्वा काष्ठमण्डपोपत्यकायामेव 77% जनेषु संक्रमणम् पुष्टिभूतम् अस्ति इति मन्त्रालयेन ज्ञापितम् अस्ति। सम्प्रति आराष्टम् 17,478 सक्रिय संक्रान्ताः जनाः वर्तन्ते। गत चतुर्विंशत्याम् घण्टासु अतिरिक्ताः 67% जनाः संक्रमणात् मुक्ताः वर्तन्ते। मन्त्रालयस्य अनुसारेण अद्यावधि 72% जनाः संक्रमणात् मुक्ताः सन्ति। चितवन चिकित्सा महाविद्यालयेन घण्टाद्वये एव कोरोना विषाणोः पीसीआर विधेः परीक्षणस्य परिणाम पत्रम् प्रदत्तम् वर्तते। चिकित्सालयेन गतदिने रैपिड एन्टीजेन टेस्ट नाम्नः परीक्षण विधेर्माध्यमेन शीघ्रम् परिणाम प्रदायिनी सेवा प्रारब्धा वर्तते। एतदर्थम् रूप्यकाणाम् 1,000 प्रदातव्यम् भवतीति चिकित्सालय प्रशासनेन ज्ञापितम् अस्ति। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन मन्त्रालयै सह सम्बद्धेषु विषयेषु सूचनाम् प्राप्य तान् निरीक्ष्य च सर्वकारेण विहितानाम् दायित्वहीनानाम् कार्याणाम् विषये जनताम् सूचयितुम् सर्वकारम् सावधानम् कारयितुम् च स्वदलीय सांसदाः क्रियाशीलाः भवितुम् निर्दिष्टाः सन्ति। कांग्रेस संसदीय दलेन छाया सर्वकारस्य रूपेण क्रियाशीलतया कार्याणाम् सम्पादनाय संघटितानाम् मन्त्रालय स्तरीय समन्वय समितीनाम् संयोजकाः स्वस्व मन्त्रालयेन सह सम्बद्धेषु विषयेषु सावधानताम् स्रष्टुम् ह्यो निर्दिष्टाः सन्ति इति दलस्य प्रमुख सचेतक बालकृष्ण खाणः अज्ञापयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा योगेश कुमार भट्टराय इत्यनेन यूएई देशः नेपालस्य पर्यटनोड्डयन क्षेत्रे निवेशयितुम् अनुरुद्धो वर्तते। ह्यः मन्त्रिणा भट्टराय इत्यस्य यूएई देशस्य राजदूतस्य सईद हमदान अल नाकवी इत्यस्य च मध्ये सम्पन्ने शिष्टाचार मेलने मन्त्री भट्टराय उड्डयन क्षेत्रे निवेशनम् कर्तुम् यूएई सर्वकारम् व्यवसायिनश्च अन्वरुणत्। संस्कृति पर्यटन नागरिक डयन मन्त्री योगेश कुमार भट्टराई कोविड उनविंशतेः महामारी रोद्धुम विहितेन प्रयतनेन यात्रा प्रतिबन्धनेन च नेपालस्य पर्यटन क्षेत्रे षष्ठेः अब्जेभ्यापि अधिकानां रूप्यकाणां हानिः सम्भूतेति चर्चयन् भासते पर्यटन क्षेत्रस्य पुनरुत्थानं समाह्वयपूर्णं सम्भूतमस्ति। नेपालोद्योग परिसंघेन ह्यः आयोजितायां पर्यटन क्षेत्रस्य सुचारु सञ्चालन सम्बद्धायाम् अन्तरक्रियायाम् मन्त्री भट्टराई अवोचत् सावधानतया पर्यटकीय गतिविधिम् सञ्चालयितुम् समेषाम् पक्षाणाम् सहकार्यम् आवश्यकम् वर्तते। नेपाली कांग्रेस संसदीय दलेन चिकित्सा शिक्षायाम् स्वास्थ्य क्षेत्रे च सुधारम् कर्तुम् परिवर्तनम् विधातुम् च भूयो भूय अनशनरतस्य डा गोविन्द केसी इत्यस्य याचनाम् सम्बोधयितुम् सर्वकारः ध्यानाकर्षितो वर्तते। संसदीय दलस्य प्रमुख सचेतकेन बालकृष्ण खाण इत्यनेन ह्यः प्रकाशितायाम् विज्ञप्तौ जुम्ला जनपदे सप्ताहात् अनशनरतस्य डा केसी इत्यस्य याचनाम् प्रति ऐक्यबद्धता ज्ञापिता अस्ति। सर्वोच्च न्यायालयेन इष्टिकोत्पादनशालायां जीवितावस्थायाम् एव जनदहनस्य आरोपे दण्डनानुसन्धानक्रमे कारावासे स्थितेन प्रतिनिधिसभायाः निलम्बितेन सांसदेन पूर्वमन्त्रिणा च आफताब आलम इत्यनेन सह सम्बद्धस्य न्यायिक प्रकरणस्य अभिलेख पञ्जिकाम् अभियाचितुम् आदिष्टम् वर्तते। न्यायाधीशस्य मनोज कुमार शर्मणः एकल न्यायपीठेन आलम इत्यस्य न्यायिक प्रकरणस्य सम्बन्धे दण्डनानुसन्धानाय कारावासे प्रेषण विषयकम् रौतड जनपद न्यायालयस्य वीरगंज वर्तिनः उच्च न्यायालयस्य च विवरणोल्लिखित प्रतिवेदनादेशम् अभियाचितुम् इह आदिष्टमस्ति। गत विक्रमाब्दीयम् मदन पुरस्कारम् चन्द्रप्रकाश बानिया भिरेन लिखिताय महारानी नाम्ने उपन्यासाय प्रदातुम् निर्णीतम् वर्तते। मदन पुरस्कार गुठी संस्थायाः ह्यः उपविष्टेन साधारण सभायाः उपवेशेन गत विक्रमाब्दे प्रकाशितासु कृतिषु ऐतिहासिकोपन्यासाय महारानी इति नामकाय उपन्यासाय प्रदातुम् निर्णीतमिति गुठी संस्थायाः अध्यक्ष कुन्द दीक्षितः ज्ञापयत्। एवमेव सभया गतेभ्यः षड्व्यो दशकेभ्यः नेपाली गीत संगीत क्षेत्रे समर्पितायै विशिष्ट योगदान प्रापकायै गायिकायै संगीत साधिकायै च शान्ति ठटाल इत्यस्मै गत विक्रम वर्षीयम् जगदम्बासी पुरस्कारम् प्रदातुम् निर्णीतम् वर्तते। नुवाकोट जनपद प्रशासन कार्यालयेन मापदण्डस्य वैपरीत्येन सञ्चाल्यमानः शिलाखण्डोत्पादनोद्योगाः पिदापिताः सन्ति। सहायक प्रमुख जनपदाधिकारिणः बद्रीनाथ गैरे विधस्य नेतृत्वे गतेन समूहेन जनपदस्य विभिन्नेषु स्थानेषु सञ्चालिताः तादृशाः पञ्च उद्योगाः पिदापिताः वर्तन्ते इति समाचारः।